सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। महोदय, कृपया श्लोकान् स्मारयतु।
येनाक्षरसमानायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः विमलैः शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओं श्रीगुरुभ्यो नमः। हरिः ओं।
धन्यवादाः महोदय। अस्माकं करपत्रमस्ति धातुविज्ञानं तृतीयभागः, स्वराणाम् आधारेण पदव्यवस्था इड् व्यवस्था च ज्ञायते अस्य करपत्रस्य अध्ययनेन। करपत्रस्य अधोभागे अभ्यासः वर्तते, अद्य अभ्यासं कुर्मः। सूत्राणि वयं सम्यक् अवगतवन्तः वा न वा इत्यस्य समाधानम् एव अयम् अभ्यासः। अतः अभ्यासः अपेक्षितः अथवा अभ्यासः आवश्यकः। अस्तु, एतावत्पर्यन्तं यदस्माभिः पठितं सारांशरूपेण शीघ्रं वदामि। धातुः अनुदात्तेत् चेत् अथवा नित् चेत् तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति। सः धातुः अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदी भवति। धातुः कदा उभयपदी भवति इत्युक्ते औपदेशिकावस्थायां धातौ स्थितस्य इत्संज्ञकस्वरवर्णस्य उपरि स्वरितचिह्नम् अस्ति चेत् अथवा धातुः इणित् अस्ति चेत् तदा सः धातुः उभयपदी भवति। अपि च तत्र क्रियायाः फलं कर्ता प्राप्नोति चेत् आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति। क्रियायाः फलम् अपरेषां प्रति गच्छति चेत् इत्युक्ते क्रियायाः फलं न केवलं कर्ता प्राप्नोति, अपराः जनाः अपि प्राप्नुवन्ति चेत् तादृशधातोः परं परस्मैपदसंज्ञकप्रत्ययाः विहिताः भवन्ति इति उभयपदी धातूनां प्रसङ्गे। धातुः कदा परस्मैपदी भवति? धातुः अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, नित् नास्ति, इणित् नास्ति चेत् किं भवति? उदात्तेत् भवितुं शक्नोति, नो चेत् धातुः उदात्तः भवितुं शक्नोति। कोऽपि इत्संज्ञकवर्णः तत्र नास्ति चेत्, तत्र अवशिष्टस्वरः उदात्तः अस्ति चेत् धातुः उदात्तः भवितुं शक्नोति। तादृशधातोः परं परस्मैपदीसंज्ञकप्रत्ययाः विहिताः भवन्ति इति पदव्यवस्थायाः प्रसङ्गे। इड् व्यवस्थायाः प्रसङ्गे वयं त्रीणि सूत्राणि पठितवन्तः। प्रत्ययस्य स्वभावम् अवगन्तुं सूत्रद्वयं पठितवन्तः। धातोः स्वभावं ज्ञातुम् एकं सूत्रं पठितवन्तः। इडागमः आर्धधातुकप्रक्रियायाम् अत्यावश्यकं कार्यम्। इडागमः भवितुं धातुः अपि सेट्, प्रत्ययः अपि सेट् भवेत्। द्वयोः इडनुकूलता वर्तते चेदेव तत्र इडागमः भवति। इत्युक्ते धातोः स्वभावम् अवगन्तुम् एका च उपदेशे अनुदात्तात् इति सूत्रं वयं पठितवन्तः। धातुषु अनुबन्धवर्णानां लोपकार्यानन्तरं यः अवशिष्टस्वरवर्णः अस्ति सः अवशिष्टस्वरवर्णः उदात्तः अस्ति वा, अनुदात्तः अस्ति वा, स्वरितः अस्ति वा इति द्रष्टव्यम्। अपि च सः धातुः एकाच् धातुः भवेत्। इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरं धातुः एकाच्, अपि च अच्वर्णस्य अधोभागे रेखा अस्ति चेत् तदा अनुदात्तः भवति, अवशिष्टस्वरः अनुदात्तः, सः धातुः अनिट् भवति। एकाच उपदेशे अनुदात्तात् सूत्रेण धातोः अनिटत्वम् उच्यते। अवशिष्टस्वरवर्णः उदात्तः चेत् सेट् भवति, अवशिष्टस्वरवर्णः स्वरितः अस्ति चेदपि सः धातुः सेट् भवति। धातौ अपि आनुकूल्यम् आवश्यकं, प्रत्यये अपि आनुकूल्यम् आवश्यकम् इडागमः भवितुं। प्रत्ययस्य स्वभावम् अवगन्तुं सूत्रद्वयं पठितवन्तः। आर्धधातुकस्येड्वलादेः नेड्वशीकृति, धातोः परं कीदृशप्रत्ययः अस्ति इति प्रथमतया परिशीलनीयं। सः प्रत्ययः आर्धधातुकसंज्ञकः वा इति द्रष्टव्यं। आर्धधातुकप्रत्ययः अस्ति चेत् तादृशप्रत्ययस्य आदिमवर्णः वलादिः अस्ति वा इत्यपि द्रष्टव्यं। तद् न पर्याप्तम्, इतोपि तत्र चिन्तनम् अस्ति। सः आर्धधातुकप्रत्ययः कृत् प्रत्ययः अस्ति चेत् कृत् प्रत्ययस्यादिमवर्णः वशादिः मा भवेत् इति सम्पूर्णचिन्तनं तत्र अस्ति। नेड् वशीकृति इति सूत्रेण इडागमनिषेधः भवति, आर्धधातुकस्येड्बलादेः सूत्रेण इडागमविधिः भवति, विधायकसूत्रम् आर्धधातुकस्येड्बलादेः। तावत्पर्यन्तं वयं पठितवन्तः। करपत्रं पश्यन्तु, करपत्रे अभ्यासः अस्ति। अपि च गतवर्गात् परम् अहं कानिचन ई पत्राणि प्रेषितवती तुमुन् इति प्रत्ययस्य प्रसङ्गे। गते वर्गे वयं कर्तुम् इति रूपं दृष्टवन्तः खलु, अतः अस्माकं जालपुटे एकं करपत्रम् अस्ति, तदर्थं प्रेषितवती। वस् धातुतः वस्तुम् इति रूपमेव साधु, वसितुम् इडागमयुक्तं रूपम् असाधु, उषितुं रूपमपि असाधु, केवलं वस्तुं रूपमेव साधु। किमर्थं? तत्र चिन्तनं किम् इति तस्मिन् करपत्रे लिखितमस्ति। अपि च महोदयेन पृष्टमासीत् कृदन्तव्ययानि कानिचन सन्ति। कृदन्तव्ययानि इत्युक्ते क्त्वान्तरूपं कृदन्त अव्ययं, तुमुन्नन्तं कृदन्त अव्ययं, ल्यबन्तम् अपि कृदन्त अव्ययं। केन सूत्रेण तुमुन् अव्ययं भवति इति प्रश्नः अस्ति। तत्र कृन्मेजन्तः इति एकं सूत्रमस्ति, कृन्मेजन्तः। तत्र सूत्रस्य विवरणं ज्ञातव्यम् अस्माभिः। तेन सूत्रेण तुमिन् अव्ययपदं भवति। पदम् अव्ययं भवति चेत् अव्ययात् आप्सुपः इति सूत्रेण तस्मात् परं स्थितस्य सुप्रत्ययस्य लोपः भवति। आदौ स्वौजसमौट् इति एकं दीर्घं सूत्रमस्ति, तस्मिन् सूत्रे एकविंशति सुप्रत्ययाः सन्ति। आदौ सुप्रत्ययानां विधिः भवति। तुमिन्नन्तं पदं कृन्मेजन्तः इति सूत्रेण अव्ययपदं भवति इति कारणतः अव्ययात् आप्सुपः इति सूत्रेण सुप् लुक् भवति, सुप्रत्ययस्य लुक् भवति, लोपः भवति। यद्यपि लोपः भवति तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तत्र प्रत्ययलक्षणं तिष्ठति इति तत्र वार्ता। अपि च क्त्वान्तरूपमपि कृदन्त अव्ययमेव। तत्रापि एकं सूत्रमस्ति क्त्वा तो सुन् कसुनः। तेन सूत्रेण क्त्वान्तरूपाणि अव्ययसंज्ञां प्राप्नुवन्ति। अव्ययसंज्ञां प्राप्नुवन्ति चेत् पुनः तदेव चिन्तनम्, इत्युक्ते अव्ययं भवति चेत् अव्ययात् आप्सुपः इत्यनेन सुब्लुक् भवति। अपि च चुरादिगणे णिच् स्वार्थे विधीयते, अपरेषु गणेषु प्रेरणार्थे णिच् विधीयते। णिच् प्रत्ययः प्रेरणार्थकप्रत्ययः, प्रेरणार्थे णिच् विधीयते, इच्छार्थे सन् विधीयते। चुरादिगणं त्यक्त्वा अन्येषु गणेषु प्रेरणार्थे णिच् विधीयते, किन्तु चुरादिगणे स्वार्थे अपि णिच् विधीयते। किन्तु प्रश्नः कः? तत्र चुरादिगणे णिचः वैकल्पिकत्वम् अस्ति वा, णिच् प्रत्ययः विकल्पेन विधीयते वा? केषुचित् धातुषु तादृशी स्थितिः अस्ति, केभ्यश्चित् धातुभ्यः णिच् विकल्पेन विधीयते इति तत्र वार्ता। ईदृशानि करपत्राणि प्रेषितानि मया, भवन्तः सर्वे सिद्धाः इति मन्ये, अभ्यासं कुर्मः। करपत्रं पश्यन्तु।
भगिनि, एक लेखो इन्फर्मेशन्, वयं सर्वे अष्टाध्यायीसूत्रपाठः वि आर् हेविङ्ग् दीक्षित् पुष्पा माताजी माताजी देयर् इन् पेज् नम्बर् 38 शी हेस् गिवन् अव्ययसंज्ञा 1, 2, 3, 4, 5 सूत्राणि. वाट् एवर् यु सेट् जस्ट् नौ, कृन्मे जन्तः त्वा तोसुन् कसुनः, यु नो इट् इस् ईज़ी टु रिमेम्बर् इफ् यु सी दिस् अव्ययसंज्ञा स्वरादिनिपातम् अव्ययं तद्धिराश्च सर्वा विभक्ति कृन्मे जन्तः त्वा तोसुन् कसुनः अव्ययीभावश्च इति शी सेपरेट्लि गिवन् अव्ययसंज्ञा सर्वनामस्थानसंज्ञा विभाषासंज्ञा परिभाषासूत्राणि इति. इफ् सपोज़् दि अदर् मेम्बर्स् डु नाट् नो, ऐ हेव् स्टार्टेड् ओपनिङ्ग् दिस् बुक् रीसेण्ट्लि. So, I came across this information, I thought I'll share.
Can you please share the book details also, so that we can also buy?
It is there in Lakshmi Bhaginiyaha's email. Madhye asti na?
Okay.
Adho Bhagi.
Sanskrit Bharati website madhye asti. Tadeva.
Okay, tadeva.
Ashtatrimshat puteva, Bhagini?
Aam, Bhagini, Ashtatrimshat puteva.
अभ्यासः इति बिन्दुः अस्ति, तस्मात् आरभ्य पठेम. गोमती भगिनी कृपया भवती एव आरम्भं करोतु. आरब्धुमिच्छति वा?
क्षम्यता भगिनी, म्यूट् मध्ये आसम्. इदानीम् अभ्यासः. अत्र केचन भ्वादिगणीयाः धातवः सूचिताः. प्रत्येकं धातु सेट् अनीट् वा इति निर्णेतव्यम्. आत्मनेपदी, उभयपदी, परस्मैपदी वा इत्यपि वक्तव्यम्. तदा लौकिकधातुकः लट् लकारे रूपं किम् इति सूचनीयम्. अन्ते सेट् अनीट् दृष्ट्वा तृजन्तस्य किं रूपं स्यात् इति अनुमानं क्रियताम्. तृच् नाम इडागमे यथा स्पर्धिता भविताः, इडागमे च यथा कर्ता वक्ता. तृच् नाम इडागमे यदा स्पर्धिता भविताः.
भविता, भविता इति तृजन्तरूपम् अस्ति. भविता इति एकवचनम् अस्ति चेत् रूपाणि कथं भवन्ति?
भवितः, भवितौ, भविताः.
तृजन्तरूपं रुकारान्तपदं भवति खलु?
भवितृ
भवती जानाति एव, केवलं स्मारयामि. भविता, भवितारौ, भवितारः, तत्र सेमिकोलन् अस्ति भगिनि.
स्पर्धिता इत्युक्ते किं महोदय?
स्पर्धिता इति तृजन्तरूपं स्पर्धधातोः, इडागमयुक्तं रूपं स्पर्धितृ इति प्रातिपदिकम् अस्ति.
स्त्रीलिङ्गे अस्ति.
न न भगिनि, अहं वदामि अस्मिन् प्रसङ्गे. परिच्छेदं पठितवती खलु, भवत्याः अवगमनं किम् अस्ति वदतु, पश्चात् वदामि.
परिच्छेदं धातुः इडागम अनुकूलः वा, प्रत्ययः इडागम अनुकूलः वा, सूत्राणि किं, तदेव न भगिनि
वदतु.
धातुः एकाच् उपदेशे अनुदात्तात् इति सूत्रेण औपदेशिकधातु एकाच् अपि अनुदातः अपि अस्ति, तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति. अनुबन्धनिष्कासनानन्तरं धातोः अनुदातः चिह्नं वर्ण चिह्नम् अस्ति चेत् तत् धातु इडागमः अनुकूलः न भवति. स्वरितः अथवा उदातः अस्ति चेत् तत् प्रत्ययः तद् यद्विहितं तद् इडागम धातुः इडनुकूलः भवति इति एकाच उपदेशे अनुदात्तात् इति धातोः विषये धातु इडनुकूलः वा न इति सूत्रं वदति. अनन्तरं प्रत्ययस्य विषये सूत्राणि सूत्रद्वयं वयं पठितम्. अर्थधातु
सम्यक् उक्तवती. अत्र विषयः, अत्र केचन धातवः दत्ताः, ते सर्वे भुवादिगणीयाः. भुवादिगणीयधातुः अस्ति चेत् तत्र लटीरूपं साधयितुम् इच्छामश्चेत् तत्र शप् विहितः भवति खलु. अपि च किं किं वक्तव्यं, धातुः सेट् वा अनिट् वा इति वक्तव्यं, सः धातुः आत्मनेपदी वा, उभयपदी वा, परस्मैपदी वा इति वक्तव्यं, तत्र लौकिकधातुः कः इति वक्तव्यं, लट्लकाररूपं किम् इति वक्तव्यम्. अपि च अस्माकं विषयः तु इड् व्यवस्था, अतः सः धातुः सेट् वा अनिट् वा, किमर्थं सेट् भवति अनिट् चेत् किमर्थम् अनिट् भवति इति आदौ चिन्तनीयं. तस्मात् धातुतः तृच् प्रत्ययस्य योजनेन तृजन्तं रूपं किं भवति इति वक्तव्यं. किमर्थं तृजन्तं रूपम् एव वक्तव्यम् इति अत्र लिखितमस्ति. कारणं किं भवितुं शक्नोति?
तृच् नाम इडागमे, तृच् नाम इडागमे, इडागम भवति. तृच् प्रत्ययस्य विषये इडागम भवति, इडागमः.
मम प्रश्नः कः इत्युक्ते, अत्र धातुः सेट् वा अनिट् वा इति द्रष्टव्यं, पश्चात् धातोः परं तृच् प्रत्ययं योजयित्वा रूपं साधनीयं. तृच् प्रत्ययः इडनुकूलप्रत्ययः, तृजन्तं रूपमेव किमर्थं वक्तव्यम्, अत्र किमर्थं केवलं तृजन्तमेव वदन्तु इति किमर्थं लिखितम् इत्युक्ते, तृच् प्रत्ययस्य प्रसङ्गे अपवादाः न सन्ति. अन्येषाम् आर्धधातुककृत् प्रत्ययानां प्रसङ्गे कुत्रचित् अपवादाः सन्ति. अपवादाः सन्ति चेत् अस्माकं मनसि भ्रमः जायते. अतः तृच् प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति इति एका वार्ता, अपि च तृच् प्रत्ययान्तरूपेषु अपवादाः न सन्ति इति वार्ता. तृच् प्रत्ययः किमर्थम् इडनुकूलः वदतु.
तृच् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, फस्ट् पायिण्ट्. अनन्तरं कृत् प्रत्ययः अस्ति आर्थधत्वस्येड् वलादेः इति सूत्रेण तकारः वल् प्रत्याहारवर्णस्य अन्यतमः वर्णः अस्ति. वलादेः अन्यतमवर्णः अस्ति चेत् आर्थधातुकस्य प्रत्ययः इडागम अनुकूलः भवति. अतः तृच् इति इडनुकूलः अस्ति. तत्तु कृत् अस्ति. नेट् वशीकृति इति सूत्रस्य प्रसक्तिः अपि तत्र द्रष्टव्यं. न इट् वशीकृति इति एतत्तु कृत् प्रत्ययः अस्ति. वश् प्रत्याहारस्य अन्यतमः वर्णः नास्ति तकारः. अतः अत्र इडनुकूलः भवति एव. इडनुकूलनिषेधक नास्ति. इडनुकूल भवति. तृच् प्रत्ययः सेट् अस्ति इति.
तृच् प्रत्ययः तिङ् नास्ति, षित् नास्ति. तिङ् नास्ति, षित् नास्ति चेत् आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. अपि च सः प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः. अपि च तिङ् नास्ति, तिङ् नास्ति चेत् कृदतिङ् सूत्रेण कृत् प्रत्ययः भवति. कृत् प्रत्ययः अस्ति इति कारणतः नेड् वशीकृति इति सूत्रस्य चिन्तनमपि करणीयम्. तृच् प्रत्ययस्य तकारः वशादिः नास्ति इति कारणतः इडनुकूलः इति तत्र वार्ता. इड्व्यवस्थायाः प्रसङ्गे वयं चिन्तनं कुर्मः खलु. तुमुन्नन्तरूपाणि, स्तवत्वन्तरूपाणि, क्तान्तरूपाणि पश्यामश्चेत् तत्र बहवः अपवादाः सन्ति. अन्येषु आर्धधातुककृदन्तरूपेषु अपवादाः सन्ति, किन्तु सृजन्तानां प्रसङ्गे अपवादाः न सन्ति. अस्माकं सौलभ्यार्थं सृजन्तरूपाणां चिन्तनं कुर्वन्तु इति अत्र लिखितमस्ति. तदर्थं सृजन्तरूपाणि सर्वेभ्यः धातुभ्यः विहिताः भवन्ति. अपि च त्रिषु लिङ्गेषु सम्भवन्ति. पुंलिङ्गे स्पर्धिता, स्त्रीलिङ्गे किं भवति? कर्ता अस्ति चेत् स्त्रीलिङ्गे किं भवति?
कर्त्री, कर्त्री इति.
स्पर्धिता अस्ति चेत्
स्पर्धित्री.
भविता अस्ति चेत्
भवितृ, भवित्री.
वक्ता अस्ति चेत्
वक्त्री.
त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. नपुंसकलिङ्गे अपि तस्य रूपाणि सन्ति. तृजन्तरूपाणि नपुंसकलिङ्गे कथं भवन्ति? प्रातिपदिकम् इव दृश्यते.
ओ, पितृ एव. पुल्लिङ्ग, पुल्लिङ्ग अस्ति.
पितृ इति पदं भिन्नरीत्या निर्मितं. कर्ता इति पदं क्रू धातुतः निर्मितं पदं. क्रू धातुतः तृच् योजनेन कर्ता इति रूपं सिद्ध्यति. पुंलिङ्गे कर्ता, कर्ता, कर्तारौ, कर्तारः इव रूपाणि. स्त्रीलिङ्गे कर्त्री इति रूपं भवति. नपुंसकलिङ्गे कर्तृ एव प्रथमाविभक्ति एकवचनरूपं. वक्ता अस्ति चेत् नपुंसकलिङ्गे वक्तृ, स्पर्धितृ इति नपुंसकलिङ्गे भवितृ, एवं नपुंसकलिङ्गे रूपाणि भवन्ति. आहत्य अत्र वार्ता का? सृजन्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. कर्ता, कर्त्री, कर्तृ ईदृशानि रूपाणि त्रिषु लिङ्गेषु भवन्ति. कर्तृ इति प्रातिपदिकात् कर्ता इति प्रथमान्तं रूपं साधयितुमिच्छामश्चेत् अस्माभिः सुबन्तप्रक्रिया ज्ञातव्या. तत्र बहूनि सूत्राणि, नूतनानि सूत्राणि अस्माभिः ज्ञातव्यानि. प्रातिपदिकं कर्तृ अस्ति, अथवा वक्तृ, अथवा स्पर्धितृ, भवितृ इति प्रातिपदिकमस्ति. किन्तु प्रथमाविभक्ति एकवचनरूपं साधयितुमिच्छामश्चेत् तत्र सुबन्तप्रक्रियायाः विषयः ज्ञातव्यः. भगिनी, प्रथमधातोः प्रसङ्गे भवती एव वदतु.
इग्यौ इति धातुः अस्ति. फादिगणीयधातुः अस्ति. इग्यौ अत्र इकारः इत्संज्ञकः, अनुनासिक इत्संज्ञकः इकारः अस्ति. इति धातुः अस्ति चेत् तत्र नुमागमः भवति. इदितो नु धातुः इति सूत्रेण नकारः नुम्, अतः मिदचौन्त्यात् परः इति सूत्रेण अन्तिम अच् वर्णात् परे अस्ति. अतः तद् इङ् इति इत्संज्ञा, इकार इत्संज्ञा, तस्य लोपः भूत्वा मिदचौन्त्यात् परः इति सूत्रेण नुगामः नुमागमः भवति इङ् इति धातुः लौकिकप्रक्रियायां सिद्धः भवति इङ् इति मिदचौन्त्यात् परः तस्य आगमनात् अपि सूत्रद्वयं कार्यं करोति तत्तु नश्च पदान्तस्य छलि इति सूत्रेण नकारस्य अनुस्वारः भवति अनन्तरम् अनुस्वारस्य एयि परसवर्णः इति सूत्रेण गकारस्य परसवर्णः तु ङकारः अस्ति अतः इङ् इति सूत्रं सोरि प्रत्ययः प्रक्रियासिद्धः भवति सोरि भगिनि इङ् नास्ति इङ् इति प्रक्रियार्थं धातोः रूपं सिद्धं भवति इङ् सूत्रेण तत्र प्रथमपुरुषः एकवचनं लट् रूपं लट् रूपे तिप् इति भवति तिप् इति सार्वधातुकप्रत्ययः अस्ति
एकवारं वदतु लट् रूपं साधयितुम् अयं धातुः किं पदि इति ज्ञातव्यं किं पदि
तत्र तु इत्संज्ञकः निष्कासनानन्तरं उदात्त स्वरः एव अस्ति अतः धातुः सेट् अस्ति इडनुकूलः अस्ति
इडागमस्य प्रसङ्गे साधु उक्तवती किन्तु अयं धातुः किं पदि परस्मैपदी वा उभयपदी वा
परस्मैपदी इङ् धातुः
किमर्थं परस्मैपदी
वदामि कर्त्रभ्य अन्यत् नास्ति ङित् नास्ति अनन्तरं आत्मनेपदी धातुः अस्ति चेत् स्वरितः नितः सोरि स्वरित अनुदातनितः आत्मनेपदी भवति ततो एषः धातुः नास्ति स्वरितनितः कर्त्राभिप्राये उभयपदि भवति ङित् नास्ति स्वरितः नास्ति अतः उभयपदि सोरि उभयपदि नास्ति केवलं शेषः सर्वे परस्मैपदी धातवः अतः तत्र सूत्रं शेषात् कर्तरि परस्मैपदं न भगिनि शेषात् कर्तरि परस्मैपदम् अतः एतत् धातु एषः धातुः आत्मन् सोरि परस्मैपदी अस्ति
परस्मैपदी धातुः अस्ति शेषात् कर्तरि परस्मैपदम् इति सूत्रेण धातोः रूपं पश्यन्तु अत्र अनुनासिक इकारः अस्ति इदिति धातुः किन्तु अत्र किमपि चिह्नं अन्यचिह्नं नास्ति इत्युक्ते अनुदात्तेत् नास्ति स्वरितेत् नास्ति ङित् नास्ति इणित् नास्ति किमपि नास्ति इति कृत्वा धातुः उदात्तेत् इति वक्तुं शक्यते अतः धातुः परस्मैपदी भवति इदानीं रूपं साधयतु
अनन्तरं लट् लकारस्य कार्यं तिप् इति प्रथमपुरुष एकवचन प्रत्ययः तत्तु तिङ् अस्ति सार्वत्र सार्वधातुकप्रत्ययः अस्ति तिंशित् सार्वधातुकम् इति सूत्रेण कर्तृत्वे सार्वधातुकप्रत्यये परे अस्ति चेत् तत्र शप् इति विकरणप्रत्ययः आगच्छति इङ् योग शप् योग तिप् भवति शप् तत्र किस्सज्ञालोपानन्तरं केवलम् अशिष्यते इङ् इति अङ्गं भवति तिप् तत्र पकारस्य लोपानन्तरं केवलं ति इति तिष्ठति इङ् ति इति रूपम्
अत्र गुणकार्यम् अस्ति वा नास्ति वा
इङ् नास्ति भगिनि किमर्थं चेत् इङ् गकारः अस्ति अकारः अस्ति न इङ् अङ्गम् अकारः अस्ति अकारान्तम् अस्ति गुणकार्यं न भवति उपधायामपि किमपi इक् वर्णः नास्ति अतः पुगन्धलघूपदस्य च इत्यत्र कार्यमपि न भवति केवलं वर्णमेलनम् इङ्गति इति
उत्तमं केवलं वर्णमेलनमेव अस्ति अत्र गुणकार्यं नास्ति शप्रत्ययं निमित्तीकृत्य गुणकार्यं नास्ति तिप्रत्ययं निमित्तीकृत्य अपि गुणकार्यं नास्ति इदानीं त्रिजन्तरूपं साधयतु
धातुः इङ् इङ् इति इङ् योगः त्रिच् त्रिच् इति सेट् प्रत्ययः अस्ति इङ् अपि इडनुकूलः अस्ति
किमर्थं धातुः सेट्
सा धातुः अनुदात्त इत् नास्ति अनु इत् लोपानन्तरम् अतः अनुदातेत् उपदेशे उपदेशे अनुदात् एकाच् अस्ति अनन्तरम् अनुदात्त स्वरः अपि नास्ति तत्र अतः तद् इडनुकूलः अस्ति धातुः इडनुकूलः प्रत्ययः इडनुकूलः अतः इड आगमः भवति एव इङ् योग इ योग तृच् तृच् अत्र चकारस्य इत्संज्ञा हलन्द्यम् इति सूत्रेण तस्य लोपः भवति तृ एव शिष्यते इङ् इतृ इति एकं प्रत्ययस्य रूपम् इङ् योग इतृ इङ्गितृ इङ्गितृ इति भवति
इङ्गितृ इति प्रातिपदिकं
प्रातिपदिकम् अनन्तरं प्रातिपदिकम् अस्ति चेत् कृत् कथितसमासश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति न भगिनि
इत्युक्ते इदं पदं कृत् प्रत्ययस्य योजनेन निर्मितं पदं खलु अतः कृत् अद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा दीयते त्रिषु लिङ्गेषु रूपाणि वदतु
इङ्गिता इङ्गित्री इङ्गितृ
उत्तमम् इङ्गितं सर्वे जानीमः खलु इङ्गितम् इङ्गितम् इति पदमस्ति चेत् कीदृशं रूपम्
इङ्गितम्
चिन्ता मास्तु कथान्तरूपं भवति कथान्तरूपम् अस्ति
अत्र नवीन टीचर्स् मीटिङ्ग् वास् देयर् फ्रम् 6:30 मै हेड् इस् स्प्लिटिङ्ग् बिकास् सो मेनी इन्फर्मेशन् महोदय वास् गिविङ्ग् ऐ एम् नाट् एबल् टु कान्सन्ट्रेट् एट् आल् नो ऐ विल् पार्टिसिपेट्
भवती सम्यक् उक्तवती धन्यवादाः
अस्तु
यथा कर्ता कर्त्री कर्तृ एवं त्रिषु लिङ्गेषु रूपाणि भवन्ति तादृशरीत्या एव अत्रापि इङ्गिता इङ्गित्री इङ्गितृ इति त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति तत्र प्रक्रिया का इति भिन्ना वार्ता तृच् प्रत्ययस्य योजनेन ऋकारान्तप्रातिपदिकं सिद्ध्यति ऋकारान्तप्रातिपदिकम् इङ्गितृ इति प्रातिपदिकमस्ति खलु अतः ऋण्येभ्यो नीप् इति एकं सूत्रमस्ति ऋण्येभ्यो नीप् इत्युक्ते ऋकारान्तप्रातिपदिकात् नीप् प्रत्ययः विहितः भवतु इति सूत्रेण उच्यते नीप् इति कथनेन तत्र पकारः हलन्त्यमित्यनेन अपगच्छति कवर्गीय अन्तिम अनुनासिकव्यञ्जनं ण्यकारः लशक्वतधिते इत्यनेन अपगच्छति ई इति रूपमेव तत्र तिष्ठति तदर्थमेव इङ्गित्री कर्त्री भवित्री स्पर्धित्री ईदृशानि रूपाणि सम्भवन्ति अस्माभिः सुबन्तप्रक्रिया ज्ञातव्या तदवगन्तुं चिन्ता मास्तु अत्र उदाहरणत्वेन इग्यु इति धातोः प्रसङ्गे भगिनी सम्यक् उक्तवती इदानीं नरेश् महोदय भवान् वदतु अग्रे किं दत्तम् इङ्गितं
कथान्तरूपं
धातुः सेट् अस्ति इङ् इति धातुः अस्ति इङ् योगः ई योगः कथा प्रत्ययस्य अवशिष्टभागः त इङ्गित इति प्रातिपदिकमस्ति तत्र नपुंसकलिङ्गे इङ्गितं कथान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति
रुङ् धातुः अस्ति रुङ् गतिरेशनयोः अत्र रुङ् धातुः प्रथमं तु नकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भवति नकारस्य इत्संज्ञा भवति चेत् इत् धातु आत्मनेपदी अस्ति
सूत्रं
सूत्रम् आत्मनेपदीसूत्रम् अस्ति अनुदात्तनित् आत्मनेपदम् अवशिष्टः रु अस्ति. रु तत्र उकारः अनुदात्त अस्ति. अनुदात्त अस्ति चेत् अनिट् अस्ति.
केन सूत्रेण?
एकाच अनुदात्त अनिट् अस्ति.
एकाच उपदेशे अनुदात्तात्.
उपदेशे अनुदात्तात् अवशिष्ट रु अस्ति. एतत् धातुः भ्वादिगणे अस्ति.
धातुः किं पदी अस्ति?
किं पदी अस्ति? आत्मनेपदी अस्ति.
किमर्थम्?
नकारस्य इति संज्ञा भवति. अनुदात्त नित् आत्मनेपदम् अस्ति. एतत् आत्मनेपदी अस्ति अपि च अनिट् अस्ति. रु अवशिष्ट अस्ति. भ्वादिगणे अस्ति चेत् अत्र विकरणप्रत्यय शप् अस्ति. रु योग शप् योग ते अस्ति चेत् ते. अत्र शकारस्य पकारस्य इत्संज्ञा भवति. प्रथमं तु रु अत्र भ्वादिगणे अस्ति चेत् सार्वधातुक आर्धधातुकयोः सूत्रेण अत्र गुणकार्यं भवति.
किमर्थं सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यम्?
एतत्तु सार्वधातुक अस्ति. अत्यङ्क्षित् अस्ति चेत् एतत् सार्वधातुकम् अस्ति.
शपं निमित्तीकृत्य इत्युक्ते धातोः परं शप्रत्ययः सार्वधातुकसंज्ञकप्रत्ययः. शप्रत्ययः षित् अस्ति. षित्वात् सार्वधातुकसंज्ञकः. शपं निमित्तीकृत्य धातुः इति अङ्गे गुणकार्यं भवति. धातुः कीदृशः?
धातुः तु सार्वधातुकः अस्ति.
धातुः इगन्तधातुः.
इगन्तधातुः अस्ति. उकारः अन्ते अस्ति.
वदतु.
उकारः तत्र गुणकार्यं भवति. रु रो भवति. रो योग शप् योग ते. शप् शकारस्य पकारस्य इत्संज्ञा अनन्तरं अकारः स्थीयते. रो योग अ योग ते. अत्र एचो अभियावः सन्धि भवति. रु रव भवति. रव योग अ योग ते. रवते अस्ति.
रवते इति लटीरूपम्.
लटीरूपम् अस्ति. अत्र धातु तु अहं चिन्तयामि रु अस्ति. रु गुणकार्यं भवति. रो अस्ति. त्रिच्
धातुः अनिट् धातुः खलु?
आम्, अनिट् धातुः.
इत्युक्ते इडागमयोग्यः नास्ति.
आम्.
इदानीं रु धातोः परं तृच् इति अर्धधातुकप्रत्ययः अस्ति. वदतु.
त्रिच् तु अर्धधातुकः अस्ति. अत्र चकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भवति. त्रि अवशिष्यते. रो त्रि रोत्रि भवति.
अत्र केन सूत्रेण गुणकार्यं भवति?
गुणकार्यं तु सार्वधातुक आर्धधातुकयोः
तृच् इति अर्धधातुकप्रत्ययं निमित्तीकृत्य रु इति धातौ गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. वदतु.
तृच् योग तत्र रोत्रि भवति. रोत्रि प्रातिपदिकमस्ति. पुल्लिङ्गे रोता अस्ति. अहं चिन्तयामि रोता.
उत्तमं.
रोता, रोत्री, रोत्र. स्त्रीलिङ्ग नपुंसकलिङ्ग स्त्रीलिङ्ग रोत्री, नपुंसकलिङ्ग रोत्र.
रोत्र इति नपुंसकलिङ्गे भवति, स्त्रियां रोत्री. साधु महोदय, तदेव सम्यक् रीत्या उक्तवान्. नरसिंह हेग्डे महोदय, भवान् वदतु अग्रे.
अग्रे निद्र, निद्र धातु अत्र अन्तिम अनुनासिककारे त्वरित अस्ति, ततः स्वरितनितकर्तृविप्रायक्रियाफले इत्यनेन उभयपदी भवति. यदि कर्तृतक अस्ति चेत् कर्तरि, फलम् अन्यस्य कृते अस्ति चेत् आत्मनेपदी भवति, परस्मैपदी भवति. स्वस्य कृते अस्ति चेत् आत्मनेपदी भवति, उभयपदे अस्ति. निदः नोणः इत्यनेन मूर्धनि नकार दन्तिनकार भवति, अतः निद् इति लौकिकरूपं धातु.
धातुः उभयपदी खलु? उभयपदी इति अवगन्तुम् अत्र चिह्नं किमस्ति?
स्वरित, स्वरित.
धातुं पश्यन्तु, निद्रो इति लिखितम् अस्ति. निद्रो इति कथनेन तत्र दकारोत्तरवर्ती ऋकारं पश्यन्तु, दकारोत्तरवर्ती ऋकारस्य उपरि रेखा अस्ति, स्वरितचिह्नम् अस्ति, अतः उभयपदी. वदतु महोदय.
निद् नोण इत्यनेन निद् निद् भवति. अत्र मूर्धनकार उदात्तस्वर अस्ति, अवशिष्टस्वर उदात्त अस्ति, अतः सेट् भवति धातु. सेट् भवति. निद्योग शप् योग ति, शप् मध्ये तिष्ठति. निद् उपधायां ह्रस्वैकारः अस्ति, अ इति सार्वधातुकप्रत्ययः अस्ति, अतः सार्वधातुकार्धधातुक इत्यनेन
अत्र सार्वधातुकार्धधातुकयोः नास्ति. केन सूत्रेण गुणकार्यम्?
अत्र निद्वत् भवति, क्षम्यताम्, अत्र नकार इत्संज्ञकः अस्ति, अतः निति च इति सूत्रेण गुणकार्यस्य
न पश्यतु.
क्षम्यतां, धातु नित् नकार तु धातुतः अस्ति, प्रत्ययतनस्य.
एते सर्वे धातवः भुवादिगणीयाः, अतः शपं निमित्तीकृत्य गुणकार्यं भवति एव. अत्र निद् इति धातुः लघु इगुपधधातुः खलु? अतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं खलु?
गुणस्य गुणः भवति, सूत्रम् अन्यस्तस्य. क्षम्यतां, पुगन्तलघुपदस्य इति सूत्रेण गुणः भवति. नेदिति भवति, नेदत्ते, नेदति इति रूपद्वयम्, आत्मनेपदि नेदते, परस्मैपदि नेदति. इदानीं तृच् तृजन्तरूपं, तृच् प्रत्यय इडागम अनुकूलः अस्ति, धातु अपि इडानुकूलः अस्ति, अतः इकार आगम आयाति. निद् योग ई योग तृ, निदितृ इति रूपं. निदिता, निदित्, 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 निदित् निदित्रि, निदित्र.
धातुं पश्यतु, निद् इति धातुः अस्ति, दकारात् पूर्वम् उपधायां ह्रस्व इकारः अस्ति, धातुः लघु इगुपथधातुः. वदतु.
अत्रापि गुणस्य प्रसक्तिः अस्ति, क्षम्यताम्, अत्रापि गुणस्य प्रसक्तिः अस्ति, अत्रापि पुगन्त लघुपदस्य इति सूत्रेणैव गुणस्य प्रसक्तिः अस्ति. नेदिति, नेदित्र, नेदित्र, नेदित्र इति भवति, नेदित्र, निदित्री, निदित्र.
अत्र निद् इति धातुः अस्ति, धातुः सेट् धातुः, अपि च प्रत्ययः अपि इडनुकूलप्रत्ययः, अतः निद् योगः ई योगः तृच् इति तत्र स्थितिः अस्ति. तृच् इति प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः. आर्धधातुकसंज्ञकप्रत्ययं निमित्तीकृत्य निद् इति धातौ पुगन्तलघुपदस्य च इत्यनेन गुणकार्यम्. अतः निद् नेद् भवति. नेद् योगः ई योगः तृ. नेदितृ प्रातिपदिकं. नेदित पुंलिङ्गे. नेदित्री स्त्रीलिङ्गे. नेदितृ नपुंसकलिङ्गे. रूपाणि भवन्ति अत्र. धातुः सेट्, प्रत्ययः अपि सेट्. उत्तमं महोदय, धन्यवादाः. सत्यभामा भगिनी, भवती वदतु. महोदय कृपया वदतु, किमर्थम् अयं धातुः सेट्?
किमर्थम् इत्युक्ते अत्र धातु कृते एकमेव सूत्रमस्ति, अवशिष्टस्वर अवशिष्टस्वर अनिट् अनुदात्त अस्ति चेत् धातु अनुट् अनिट् भवति. अत्र अवशिष्टस्वर उदात्त अस्ति, अतः सेट् भवति. यदा अवशिष्टस्वर अनुदात्त चेत् तत्र अनिट् भवति. अन्यत् उदात्त अस्ति स्वरित अस्ति चेत् अवशिष्टस्वर सदा सर्वदा धातु सेट् भवति.
धन्यवादः.
अनुबन्धवर्णानां लोपकार्यानन्तरम् णि इत्यत्र अणकारः ईकारः अस्ति. ईकारं पश्यन्तु, णि इत्यत्र तत्र स्वरचिह्नं नास्ति, अनुदात्तचिह्नं नास्ति, स्वरितः नास्ति, अनुदात्तः नास्ति, उदात्तः भवति. भिन्नरीत्या वक्तुमिच्छामश्चेत् अयं धातुः स्वरितेत् धातुः, इत्युक्ते स्वरितस्वरस्य इति संज्ञा अस्ति, अतः स्वरितेत् धातुः. अपि च अनुबन्धवर्णानां निष्कासनानन्तरम् अवशिष्टस्वरः उदात्तः अस्ति. उदात्तः अस्ति चेत् सेट्, केवलम् अनुदात्तः अस्ति चेदेव अनिट् भवति.
सूत्रमस्ति एकाच् उपदेशे अनुदात्तात्.
उत्तमं. सत्यभामा भगिनी.
ईशा गति सादर्शनेषु इति अर्थः. ईशामिति
अत्र किं लिखितं? गति हिंसा अदर्शनेषु.
गतिहिंसा अदर्शनेषु.
गतिहिंसादर्शनेषु वदतु.
उपदेशावस्थायाम् ईशाम् इति अस्ति. तत्र प्रथमं षकारोत्प्रवृत्ति अकारः अम् इति उपदेश अच् अनुदात्त इति सूत्रेण इत्संज्ञा भवति. तस्य लोभः इत्यनेन लोपः अपि भवति. इदानीं निरनुबन्धरूपमस्ति ईश् इति. अत्र एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति. अयं धातुः आत्मनेपदी अस्ति, यतोहि अनुदात्तनिद आत्मनेपदम् इति सूत्रेण अनुदात्तः अस्ति इति कारणात् आत्मनेपदीसंज्ञकः भवति.
भवती सम्यक् उक्तवती, तत्र भ्रमः मास्तु. अत्र धातुः अनुदात्तेत् इत्युक्ते षकारोत्तरवर्ती अकारः अनुदात्तः, अपि च अनुनासिक अकारस्य इति संज्ञा भवति इति कारणतः धातुः अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदी भवति. अत्र एकाच् इत्यस्य प्रसङ्गः नास्ति. अनुदात्तनित आत्मनेपदम् इति सूत्रेण धातुः अनुदात्तेत्. अनुदात्तेत् चेत् आत्मनेपदी. वदतु.
धातुः आत्मनेपदी अस्ति, तत्र इत् अनुकूलता अस्ति वा इति चिन्तनीयम्. अवशिष्ट निरनुबन्धरूपं यदस्ति इष् इति, अत्र एकाच अपि अस्ति, तत् अनुदात्तः अपि अस्ति, अतः अनिट् धातुः.
तत्र चिन्तनं सम्यक् नास्ति. भवती किम् उक्तवती? धातुः आत्मनेपदी भवति खलु?
आम्.
आत्मनेपदी भवति चेत् लटिरूपं साधयतु आदौ.
लटिरूपं इदानीम् इष् इति. अत्र
भगिनी अत्र पश्यतु, इष् इति नास्ति, ईश् अस्ति. अत्र भेदः अस्ति खलु? ईश् अस्ति चेत् इगुपधधातुः भवति, ईश् अस्ति चेत् गुणकार्यस्य प्रसङ्गः नास्ति खलु?
ह्रस्व उपधायां ह्रस्व इक् वर्णः नास्ति, अतः गुणकार्यं न सम्भवति.
उत्तमम्. अत्र उच्चारणं कथं भवेत्? ईश् वदतु.
ईश् योगः शप् योगः ते इति भवति. आत्मनेपदिधातुः अस्ति इति कारणात् शप् इत्यत्र शकारस्य पकारस्य हलन्त्यम् इति सूत्रेण यत् संज्ञा भवति. शकारस्य दशकोतद्यते इत्यनेन सूत्रेण इत् संज्ञा भवति. अकारः अवशिष्यते.
ईश् योगः आयोगः ते अत्र गुणः न सम्भवति अतः वर्णमेलनमेव ईशते इति रूपम्
ईशते इति आत्मनेपदिरूपं सम्भवति तृजन्तरूपं साधयतु धातोः इडनुकूलता कीदृशी अस्ति
ईश् इत्यत्र एतत् अनुदात्तयितुवर्णः अस्ति इदानीम् एकः एव अच्चपि अस्ति अतः अनिट् अस्ति
नरेश् महोदय भवान् वदतु अत्र धातोः इड् व्यवस्था कीदृशी
अनुबन्ध अन्तर तत्र अनुदात्तत्तु यत् अस्ति परन्तु तदनन्तरम् ईश् स्थीयते तत्र अनुदात्त नास्ति तत्तु उदात्त अस्ति ई उदात्त अस्ति अतः तत् सेट् धातुः अस्ति
उत्तमम् ईश् इत्यत्र अनुबन्धवर्णानां निष्कासनानन्तरम् ईश् इति कथनेन तत्र एकः एव अच्युवर्णः ईकारः अस्ति तत्र ईकारस्य उपरि वा अधोभागे वा किमपि चिह्नं नास्ति उदात्तः भवति चेत् सेट्
अहं कीदृशं चिन्तितवती इति चेत् यदि उपदेशावस्थायाम् अत्र अनुदात्तचिह्नम् अस्ति अतः तद् इति चिन्तितवती
इति संज्ञकवर्णानां लोपकार्यानन्तरम् अवशिष्टस्वरः कीदृशः इति द्रष्टव्यम् इदानीं वदतु
इदानीं धातुः सेट् अस्ति चेत् ईषित्री इति भवति
प्रातिपदिकं
प्रातिपदिकम् ईषित्री ईषिता इति
एकवारं प्रातिपदिकं सम्यक् उच्चारयतु
ईषित्र
ईषित्र इति प्रातिपदिकं पुंलिङ्गे
ईषिता
स्त्रीलिङ्गे
ईषित्री
नपुंसकलिङ्गे
ईषित्र
एवं रूपाणि भवन्ति अत्र धातुः सेट् धातुः अतः इडागमयुक्तं रूपं सिध्यति ईषित्र इति प्रातिपदिकं साधु भगिनि साधु उक्तवती इदानीं सुन्दरमहोदय भवान् करोतु
वः इति धातुः भ्वादिगणीयधातुः वहौ इति धातुः अत्र अकारस्य उपरि अनुनासिकः अस्ति अनुनासिक अकारः अस्ति अन्ते तत् कारणेन इत्संज्ञा भूत्वा लोपः उपदेशे अजनुनासिक इत् इति सूत्रेण इति अङ्कारः इत्संज्ञा भूत्वा लोपः भवति वह् इति अवशिष्यते उपरि चिह्नम् अस्ति तत्कारणेन चिह्नम् अस्ति तत् कारणेन स्वरितः अस्ति
अत्र किं वदामः अयं धातुः स्वरितेत् धातुः इत्युक्ते स्वरितस्वरस्य इति संज्ञा भवति इति कारणतः वदतु
इति कारणेन उभयपदी भवति स्वरितात् यत् उभयपदम् इति सूत्रेण स्वरितज्ञत कर्तृम्प्राये क्रियाफले इति सूत्रेण उभयपदी भवति वहति वहते इति रूपद्वयं भवति द्वादिगणीयधातुः अस्ति इति कारणेन वह् योगे शप् योगे शप् योगे तिप् चकारस्य लश क्वतदिते इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति परन्तु वह् धातुः इगन्तधातुः नास्ति तत्कारणेन गुणस्य प्रसक्तिः एव नास्ति इति कारणेन वह् योगे शप् अनुबन्धलोप लोपानन्तरम् अ एव अवशिष्यते. वह् योगे अयोगे ति परस्मैपदी वहति इति रूपम्. वह् योगे अयोगे ति ते वहते इति रूपम्. सो वहति वहते इति रूपद्वयं सिध्यति. अधुना इडागमचिन्तनं करणीयम्. इडागमचिन्तनं करणीयं. वह् अकारस्य अवशिष्टस्वरः अकारः अस्ति. अवशिष्टस्वरस्य अधोभागे चिह्नम् अस्ति. तत्कारणेन अनुदात्तस्वरः अस्ति. तत्कारणेन एका च अनुदात्तात् इति सूत्रेण इडागमः न भवति. इडागमस्य अनुकूलता नास्ति कारणेन अनिर्धातुः अनिर्धातुः. अधुना तृच् योजनीयं. तृच् प्रत्ययस्य योजनीयं. वह् योगे वह् योगे तृच् प्रत्ययः. चकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति. तृ एव अवशिष्यते. धातुः अनिर्धातुः इति वह् तृ वक्त् अपि रूपं सिद्ध्यति वा अनिट् वक्तृ वक्ता इति वक्ता
न न तत्र रूपस्य ऊहां कर्तुम् असाध्यं. तत्र बहूनि हल्सन्धिकार्याणि भवन्ति. बहूनि हल्सन्धिकार्याणि सन्ति. वह् धातुतः तृच् प्रत्ययस्य योजनेन वोढृ इति प्रातिपदिकं सिद्ध्यति.
ओढ् इति रूपं सिद्ध्यति. ओढा ओढारौ ओढारः ओढ्री ओढ्री इति स्त्रीलिङ्गपदम्. ओढ् इति नपुंसकलिङ्गपदम्. ओढा ओढारौ ओढारः इति पुल्लिङ्गपदस्य त्रीणि वचनानि.
तदेव साधु उक्तवान्. अत्र धातुः उभयपदी अस्ति. वर्णनं कर्तुमिच्छामश्चेत् धातुः स्वरितेत् धातुः अतः उभयपदी. अपि च धातुः अनुदात्तः अस्ति. अवशिष्टस्वरः अनुदात्तः. अतः एका च उपदेश अनुदात्तात् सूत्रेण अनिट् धातुः भवति. इडनुकूलः नास्ति. धातुः अनिट् अस्ति. वह् योगः तृच्. तत्र ओढृ इति प्रातिपदिकं कथं सिद्ध्यति इति केवलम् आस्वादार्थं वदामि. कक्षायाः अनन्तरं किञ्चित् प्रेषयामि. तत्र कानि कानि सूत्राणि सन्ति, हल्सन्धिसूत्राणि. वह् योगः तृच् इति कथनेन तत्र होढः इत्येकं सूत्रमस्ति. होढः इत्युक्ते हकारस्य स्थाने ढकारादेशः भवति झलिपरे इति सूत्रेण उक्तमस्ति. तत्र हकारस्य स्थाने ढकारादेशः, तेन वह् इत्यस्य रूपं वढ् भवति. वढ् योगः तृच्. तत्र झषस्तथोर्धोदः इति सूत्रमस्ति. इत्युक्ते धा धातुं विहाय अन्येषां धातूनां प्रसङ्गे झष् वर्णात् परं तकारस्य स्थाने तत्र वढ् योगः तृच् अस्ति खलु. तत्र तकारः अस्ति खलु. तत्र तकारस्य स्थाने धकारादेशः भवति झषस्तथोर्धोदः इति सूत्रेण. तेन तत्र रूपं किं भवति? वढ् योगः धृ इति रूपमस्ति. वढ् योगः ध्रु. तत्र ष्टुनाष्टुः इति ष्टुत्वं भवति. ष्टुनाष्टुः इति सूत्रेण ष्टुत्वकार्यं भवति. इत्युक्ते तत्र धकारः आसीत् खलु पूर्वं, तत्र धकारस्य स्थाने ढकारादेशः भवति. तेन वढ् योगः ढृ इति रूपमस्ति. वढ् योगः ढृ. तदनन्तरं ढोढे लोपः इत्येकं सूत्रमस्ति. तेन सूत्रेण ढकारस्य ढकारे परे संहितायां सत्यां प्रथमढकारस्य लोपः. तेन प्रथमढकारस्य लोपः भूत्वा तत्र स्थितिः का? वढ्योगः ढृ इति रूपम् अस्ति. तत्र ढोडे लोपः इति सूत्रेण प्रथमढकारस्य लोपः भूत्वा वोढृ इति प्रातिपदिकम्. वोढृ इति प्रातिपदिकात् वोढा इति प्रथमान्तं पदं पुंलिङ्गे स्त्रीलिङ्गे वोढ्रि. तुमन्नन्तं किं भवति?
तुमन्नन्तं वोढुम् वोढुम् इति भवति. नकारस्य अनन्त्यमिति सूत्रेण लोपः भवति, इत्संज्ञा भूत्वा लोपः भवति, तुम् एव अवशिष्यते.
तत्रापि ईदृशानि कार्याणि एव भवन्ति. तत्र हकारस्य स्थाने ढकारादेशः भवति. आदौ होढः इति सूत्रं प्रथमं कार्यं करोति. वोढुम् इति रूपं साधु, तृजन्तरूपं वोढ, अग्रे सरेम साधु महोदय. रोहिणी भगिनी,
तत्र तकारस्य किमर्थं तकारः किमर्थं लोपः भवति? तुमुन् प्रत्ययस्य तकारः किमर्थं लोपः भवति? किं सूत्रेण
लोपः न भवति? तस्य परिवर्तनं भवति. तत्रापि झषस्ततोर्धोदः
परिवर्तनं भवति वा? ओ,
हल्सन्धिकार्याणि भवन्ति, लोपः न भवति. चत्वारि सूत्राणि तत्र आवश्यकानि वोढुम् इति रूपं साधयितुम्. इतोपि एकं सूत्रम् आवश्यकम् अत्र वोढा इति रूपं साधयितुम्. अत्र ओकारः आयाति. तत्र रूपं पश्यन्तु, वह् धातुतः तृच् योजनेन वोढा. तत्र गुणकार्यं नास्ति, सम्प्रसारणकार्यं नास्ति, किमपि नास्ति. इत्युक्ते तत्र इतोपि एकम् अन्यत् विशिष्टं सूत्रम् आवश्यकं. तेन सूत्रेण वकारोत्तरवर्ति अकारस्य ओकारादेशः भवति. तदर्थमेव वह् ओः भवति. तत्र बहूनि सूत्राणि आवश्यकानि. रूपं सुलभतया ऊहां कर्तुं न शक्नुमः, तत्र काठिन्यमस्ति. रोहिणी भगिनी वदतु अग्रे.
विश्रु इति धातुः अन्तिम उकारः उदात् अनुनासीयशब्दः, तस्य इत् संज्ञा भवति. उपदेशे अजनुनासीय इत् इति सूत्रेण तस्य लोपः भवति. विश् भवति अवशिष्टसुरः अनुदातः अस्ति, तस्मात् इडागमः न भवति, अन्यट् धातुः भवति. विषयोग शप् योग तिप् विष् इत्यस्य पुगन्धलघुपदस्य इति सूत्रेण वेष् भवति. वेष ते इति लट्रूपं.
भगिनी धातुः किं पदि?
अत्र स्वरः अनुनासीयत् उदात्तः स्वरः अस्ति, तस्मात् परस्मैपदी एव.
अत्र णित् नास्ति, इणित् नास्ति, अनुदात्तेत् नास्ति, स्वरितेत् नास्ति इति कारणतः शेषात् कर्तरि परस्मैपदं. सूत्रेण परस्मैपदी धातुः. इदानीं रूपं वदतु, लटीरूपं.
तस्मात् विशति इति भवति, पैशति. अत्र गुणः भवति पुगन्धलघुपदस्य च इति सूत्रेण विश् वेष् भवति. वेष्योग शपयोग तिप् वेषति इति लट्रूपं भवति.
उत्तमम्. अत्र विश् धातुः उपधायां ह्रस्व ईकारः अस्ति इति कारणतः शपं निमित्तीकृत्य धातौ पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भूत्वा विश् वेष् भवति. वेष्योगः आयोगः ति वेषति. इदानीं तृजन्तरूपं.
वेष्योग तृ वेष् अत्र अनुदात अवशिष्टस्वरः अनुदातः, तस्मात् इडागमः न भवति, अनिट् धातुः अस्ति. वेष्योग
ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भवति.
वेष्ट इति रूपं भवति इति प्रातिपदिकं. वेष्टा इति पुल्लिङ्गे, वेष्ट्री इति स्त्रीलिङ्गे, वेष्ट्र इति नवंसलिङ्गे भवति.
उत्तमं भगिनि. सन्धिकार्यमपि कृत्वा उक्तवती. अत्र सन्धिकार्यमस्ति. अत्र पश्यन्तु, विष् धातुः लघुपदधातुः, तस्मात् परं तृच् प्रत्ययः, आर्धधातुकसंज्ञक तृच् प्रत्ययः अस्ति. तृच् प्रत्ययः इडनुकूलः. तृच् प्रत्ययं निमित्तीकृत्य धातौ गुणकार्यं पुगन्तलघुपदस्य च इत्यनेन विश् वेश् भवति. अत्र अवशिष्टस्वरस्य अधोभागे अनुदात्तचिह्नम् अस्ति, अतः एका च उपदेशे अनुदात्तात् सूत्रेण धातुः अनिट् भवति. इडनुकूलः नास्ति धातुः, अनिट् धातुः. तत्र विष् वेश् भवति. वेश्योगः तृ इति रूपम् अस्ति. वेश्योगः तृ इत्यत्र षकारस्य प्रभावेण ष्ठुनाष्टुः इति सूत्रेण तत्र स्थितस्य तकारस्य स्थाने तकारादेशः भवति इति कारणतः वेष्टृ. तत्र तकारस्य स्थाने मूर्धन्य टकारादेशः भवति. षकारस्य प्रभावेण तत्र श्रुत्वसन्धिकार्यमस्ति. श्रुत्वसन्धिः भूत्वा वेष्ट्रो प्रातिपदिकं, पुंलिङ्गे वेष्टा, स्त्रीलिङ्गे वेष्ट्री, नपुंसकलिङ्गे वेष्ट्रु इति त्रिषु लिङ्गेषु रूपाणि साधयितुं शक्नुमः. वेष्ट्री इति रूपमस्ति खलु स्त्रीलिङ्गे. स्त्रीलिङ्गरूपं साधयितुमिच्छामश्चेत् तत्र वेष्ट्रु इति प्रातिपदिकं स्वीकुर्मः. अहं पूर्वम् उक्तवती रुण्येभ्यो नीप् इति सूत्रमस्ति. नीप् इति एकः स्त्रीप्रत्ययः. स्त्रीलिङ्गरूपाणि साधयितुमिच्छामश्चेत् स्त्रीप्रत्ययस्य योजनं भवति. नीप् ञकारः अपगच्छति, पकारः अपगच्छति, ई एव अवशिष्यते. वेष्ट्रुयोगः ई इति स्थितिः अस्ति तत्र. वेष्ट्रुयोगः ई, वेष्ट्रु इत्यत्र ऋकारः अस्ति अन्ते, ऋकारात् परम् ईकारः अस्ति. तत्र यण्सन्धिकार्यं भवति. यण्सन्धिकार्यम् इत्युक्ते इको यणचि इति सूत्रेण यण्सन्धिः भूत्वा वेष्ट्रु इत्यत्र यः ऋकारः अस्ति तस्य ऋकारस्य स्थाने रेफादेशः भवति. तेन रेफयुक्तं रूपं सिध्यति वेष्ट्री इत्यत्र. प्रातिपदिकं तु वेष्ट्रु. वेष्ट्री इति कथनेन तत्र रेफः आयाति. रेफः कुतः आयाति ऊहं कुर्वन्तु. कर्त्री इति पदमस्ति चेत् कर्तृ इति प्रातिपदिकात् नीप्रत्ययस्य योजनेन कर्त्री इति रूपं सिध्यति. तत्र कर्तृ इत्यत्र ऋकारः अस्ति. ऋकार ईकारयोः मध्ये यण्सन्धिकार्यं भूत्वा इको यणचि इति सूत्रेण ऋकारस्य स्थाने रेफादेशः भवति इति कारणतः कर्त्री इति रेफयुक्तं रूपं सिध्यति यण्सन्धिकार्यं भूत्वा. एवमेव अत्रापि वेष्ट्री इति स्त्रीलिङ्गरूपं साधयितुं शक्नुमः. अग्रे रामचन्द्रन् महोदय भवान् वदतु.
भगिनि अहं शृणोमि भगिनि.
चिन्ता मास्तु. गोमती भगिनी भवती करोतु.
धातुः वेण्य तन्तुसन्ताने पादिगणीयधातुः. वेण्य इति णित् धातुः अस्ति. वेण्य णित् अस्ति. हलन्त्यन् सूत्रेण ञकारस्य लोपः भवति इत्संज्ञा भूत्वा वे इति तिष्ठति. वे इति अनुदात्तचिह्नम् अस्ति तत्र. अनुदात्तचिह्नम् अस्ति, एकाच् अस्ति, अतः उपदेशे एकाच् अनुदात्तेत् इति सूत्रेण वे इति धातुः अनिट् अस्ति. धातुः अनिट्, अनन्तरम् आत्मनेपदी उभयपदी परस्मैपदी वा इति. वेण्य णित् अस्ति. स्वरितनितः कर्तृभिप्राये क्रियाफले इति सूत्रेण उभयपदी भवति. उभयपदी धातुः, अनन्तरम् उभयपदी परस्मैपदी वक्तव्य, अनन्तरं लौकिकधातुः भवति वे. वे तदेव लट् लकारे वे योग शप् योग तिप्. वे योग शप् वे योग अ. अत्र एकारः अस्ति. एचोय वायावः इति सूत्रेण वायु योग आ योग ति ते रूपद्वयम् अस्ति. वायति वायते इति रूपद्वयं भवति लट् रूपं.
भगिनी अत्र किमर्थं गुणकार्यं नास्ति?
गुणकार्यं वय इति अस्ति. वायु योग अ, इगन्तं नास्ति. अनन्तरम् इगन्तं पुगन्तलघुपदस्य कृते अपि उपधायां लघु इक् वर्णः नास्ति. तु गुणकार्यस्य प्रसक्तिः एव नास्ति. अङ्गं तिप् प्रत्ययस्य कृते वाया इति अस्ति. तत्र अपि इगन्तं नास्ति. उपधायामपि लघु इक् वर्णः नास्ति. अतः तत्रापि गुणस्य कार्यं नास्ति. तु केवलं वायति वायते इति एव रूपाणि.
वे इति धातौ वकारोत्तरवर्ति एकारः अस्ति. एकारः इक् प्रत्याहारस्थवर्णः नास्ति. इत्युक्ते वे इति धातुः इगन्तधातुः नास्ति. एकारः इक् प्रत्याहारे नास्ति इति कारणतः अत्र शप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति, केवलं सन्धिकार्यमेव. अत्र यचोयवायावः इत्यनेन यान्तवान्तादेशसन्धिः भवति. केवलं सन्धिकार्यमेव अस्ति. अत्र एकारस्य स्थाने अयादेशः, तेन वयति वयते. अग्रे वदतु.
अग्रे वेन् धातुः अनिट् अस्ति इति दृष्टं. तृच् प्रत्ययः तु सेट् अस्ति, परन्तु धातु और् प्रत्ययः द्वयमपि सेट् अस्ति चेत् इडागमः भवति. अत्र धातुः अनिट् अस्ति, अतः इडागमस्य कार्यं नास्ति. वे योग तृ, वे तृ, तृ इति आर्थधातुकप्रत्ययः अस्ति. तस्य अपि अत्र गुणः प्रसक्तिः किमपि वर्णः नास्ति वे अत्र, तु वेतृ इति प्रातिपदिकं.
भगिनी तत्र चिन्तनं तु साधु एव, किन्तु तत्र अन्यत् विशिष्टं कार्यमस्ति. तृच् प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः अस्ति, अशित् प्रत्ययः अस्ति, अपि च धातुः एजन्तधातुः अस्ति. धातुः एजन्तधातुः अस्ति चेत् अशित् प्रत्यये परे किं भवति?
अशित् परे अहं वदामि भगिनि,
आदे च उपदेशे शिति इति एकं सूत्रमस्ति, तेन अहं वदामि. भवत्या यदुक्तं तत् सर्वं साधु, सम्यक् चिन्तनमेव, किन्तु तत्र अन्तिमं रूपं साधयितुम् इच्छामश्चेत् तत्र इतोपि अन्यत् कार्यम् अस्ति. धातुः एजन्तधातुः, एजन्तधातूनां प्रसङ्गे एजन्तधातुषु अशित् प्रत्यये परे अयं प्रत्ययः तृच् प्रत्ययः अशित् प्रत्ययः एव. तदर्थम् आदे च उपदेशे शिति इति सूत्रेण आत्वं भवति, इत्युक्ते वे इत्यस्य रूपं वा भवति. एजन्तधातुः आकारान्तधातुः भवति. वायोगः तृच् इदानीं वदतु.
वायोगः तृच् वातृ इति भवति, चकारस्य इत्सज्ञा भवति, अतः अवगच्छति वातृ भवति. वाता इति पुल्लिङ्गरूपं, वातृ इति स्त्रीलिङ्गं, वातृ इति नपुंसकलिङ्गरूपं.
नपुंसकलिङ्गरूपम् उत्तमं. वे धातोः रूपं वाता भवति. एवमेव गै धातुः अस्ति चेत् गै धातोः रूपं किं भवितुं शक्नोति?
गाता, गात्री, गातृ.
उत्तमम्. एवमेव ध्यै इति धातुः अस्ति चेत्
धाता, धात्री, धातृ.
अहं किम् उक्तवती धातोः रूपं ध्यै, ध्यै इति धातुतः ध्यायति, ध्यानम् इत्यादीनि रूपाणि सिद्ध्यन्ति. वदतु.
तत्रापि आदेशे
उपदेशे शिति,
आदेश उपदेशे शिति इत्र इति सूत्रेण एकारस्य आत्वं भवति. धै, धै न धेन्य अस्ति न धेन्य, तत्र धा भवति, धाता, धात्री, धातृ एवं.
मम आशयः कः, किमर्थं पृच्छन्ती अस्मि इत्युक्ते अत्र वे धातुः अपि एजन्तधातुः, गै धातुः अपि एजन्तधातुः, ध्ययि धातुः अपि एजन्तधातुः. वे धातुतः आदे च उपदेशे शिति इति सूत्रेण वाता इति रूपं सिद्ध्यति. ध्ययि धातुतः ध्याता, ध्यात्री, ध्यातृ एवं रूपाणि सिद्ध्यन्ति. एवमेव गै धातुः अपि ऐकारान्तधातुः, एजन्तधातुः. एजन्तधातुषु आदे च उपदेशे शिति इति सूत्रेण अशित् प्रत्यये परे ते धातवः अर्धधातुकप्रक्रियायाम् आकारान्ताः भवन्ति. इति कारणतः गै धातोः तृजन्तरूपं गाता, स्त्रीलिङ्गे गात्री, नपुंसकलिङ्गे गात्र, एवमेव ध्याता, ध्यात्री, ध्यातृ. ध्यै इति धातुः अस्ति, ध्यै इति धातुतः लटीरूपं किं भवति?
रूपं तत्र सन्धिकार्यमेव भवति, किमपि नास्ति, कार्यं न भवति. यदा गायति इति तत्र धै अस्ति वा भगिनि? धै,
ध्यै, धकारः, यकारः, ऐकारः,
धै. तत्र ध्यै, ध्यायति इति भवति भगिनि.
उत्तमं. ध्यायति इति रूपं भवति. गै अस्ति चेत् गायति, ध्यै अस्ति चेत् ध्यायति. तत्र केवलं सन्धिकार्यमेव अस्ति, गुणकार्यं भवितुं तत्र धातौ एव आनुकूल्यं नास्ति. अत्र तु धातुः वे धातुः अस्ति, तस्य रूपं वयति, वाता इति त्रिजन्तरूपं. साधु भगिनी उत्तमरीत्या उक्तवती. नरेश महोदय भवान् करोतु.
मस्कं मस्कङ् अत्र अन्तिम अकारः अनुनासिकः अस्ति, अपि च अनुदात्तः अस्ति. अत्र अकारस्य इत्संज्ञा भवति, अनुदात्तेत् अस्ति. अनुदात्तेत् अस्ति चेत् अत्र आत्मनेपदी अस्ति, मस्क् स्थीयते. मस्क् धातुः अस्ति, अवशिष्टधातुः अनुदात्तः नास्ति, अतः सेट् अस्ति. सेट् अस्ति चेत् मस्क् धातु, तत्र मस्क् योग शप् योग ते, अत्र म किमपि अवशिष्ट स्वरः नास्ति, अतः गुणकार्यं प्रसक्ति नास्ति. लट्लकारे मस्क मस्क योग अयोग ते मस्कते अस्ति.
अत्र धातुः अनुदात्तेत् धातुः, अतः अनुदात्तनित आत्मनेपदं सूत्रेण धातुः आत्मनेपदी भवति, अतः मस्कते. वदतु.
मस्कते अस्ति. रिच् प्रत्यययोगे मस्क् योग त्रिच् तत्र अपि किमपि गुणकार्यं न सम्भवति, अतः मस्क् परन्तु एतद् धातु तु सेट् अस्ति. सेट् अस्ति चेत् मस्कृत्रि मस्कित्रि
उत्तमं. मस्कितृ इति प्रातिपदिकं.
लिङ्ग मस्किता, स्त्रीलिङ्ग मस्कित्री, नपुंसकलिङ्ग मस्कित्र.
उत्तमं, तदेव. मस्कते इति आत्मनेपदी रूपम् अस्ति, अनुदात्ते अस्ति इति कारणतः. अपि च धातुः सेट्, सेट् कथं ज्ञायते? तत्र किमपि चिह्नं नास्ति. अत्र अवशिष्टस्वरस्य अधोभागे अनुदात्तचिह्नं नास्ति इति कारणतः धातुः सेट्, अतः मस्कितृ इति रूपम् अस्ति. साधु महोदय. अग्रे सुन्दरमहोदय, भवान् करोतु.
अत्र रभौ रभौ इति धातुः अस्ति, रभौ इति धातुः अस्ति, अकारस्य उपरि अनुनासिकचिह्नम् अस्ति इति कारणेन उपदेशे अजनुनासिक इत् इति सूत्रेण अकारस्य अन्ते स्थितस्य अकारस्य इत्संज्ञा भूत्वा लोपः भवति. रभ् रब् इति एव अवशिष्यते. तत्र चिह्नमस्ति अकारस्य अधोभागे चिह्नमस्ति, तत्कारणेन अनुदात्तेत् अनुदात्तेत् अस्ति, धातुः अनुदात्तेत् अस्ति इति कारणतः अनुदात्त नित आत्मनेपदम् इति सूत्रेण आत्मनेपदि धातुः आत्मनेपदी भवति, आत्मनेपदी भवति. रेफस्य रेफस्य अधोभागे अपि चिह्नमस्ति, तत्कारणेन अनुदातः अस्ति अकारस्य, सोरि, रेफस्य उपरि न अधोभागे न अकारस्य अकारस्य अधोभागे चिह्नमस्ति, तत्कारणेन धातुः सोरि सूत्रम् अस्ति एका च अनुदात्तात् इति. एका च अनुदात्तात् इति सूत्रेण धातुः अनिट् भवति, अनिट् भवति आत्मनेपद धातुः आत्मनेपदी भवति, अनिट् भवति भ्वादिगणीयधातुः. रभ् रभ् इति धातुः लौकिकधातुः, रभ् रभते आत्मनेपदी इति. रभ् योगे शप् योगे ते इति आत्मनेपरम् इति कारणेन ते भवति. लघुयोगे शप् योगे ते शकारस्य लशक्वत् इति सूत्रेण शकारस्य लोप इत्संज्ञा भूत्वा लोपः, हलन्त्यम् इति सूत्रेण पकारस्य अपि इत्संज्ञा भूत्वा लोपः, रभुयोगे अयोगे ते रभते इति अन्तिमरूपं सिद्ध्यति लटि रूपम्.
महोदय अत्र आ इति उपसर्गः अस्ति चेत् रूपं किं भवति? आ इति उपसर्गपूर्वकः रभ् धातोः रूपम्
आरभते इति रूपं सिद्ध्यति.
आ उपसर्गपूर्वकः रभ् धातोः रूपं बहु परिचितं रूपं खलु?
आम् आम् परिचितं रूपम् आरभते,
आरब्धम्, आरब्धा इत्यादीनि रूपाणि क्तान्तरूपाणि. आरब्धम् इति क्तान्तरूपम्. आ उपसर्गपूर्वकः रभ् धातुतः निर्मितानि रूपाणि, किन्तु आरम्भः इति भिन्नं पदम्.
तत्र अकारस्य दीर्घः भवति किल?
न, आङ् उपसर्गपूर्वकः.
आङ् उपसर्गपूर्वक रभते इति रूपम् आरभते इति रूपं भवति. एवं त्रिच् प्रत्ययस्य योजनेन रभुयोगे त्रिच् चकारस्य हलन्त्यमिति सूत्रेण लोपः भवति, त्रि एव अवशिष्यते. धातुः अनिट् धातुः अस्ति इति कारणेन रभुयोगे त्रि रभुयोगे योगे त्रि रब् त्रि इति न भवितुम् अर्हति.
भवितुम् अर्हति, तत्र हल्सन्धिकार्याणि
रोढा इति सूत्रं, रोढा इति रूपं सिद्ध्यति.
न न, अत्र गोमती भगिनी जानाति इति मन्ये. भगिनी भवती प्रयत्नं कर्तुम् इच्छति वा रभ् धातुतः तृच् योजनेन?
न स्मरामि भगिनी,
किञ्चित् वदामि. ऊहां कर्तुं न शक्नुमः, तत्र हल्सन्धिकार्याणि सन्ति एव. महोदयेन सम्यक् उक्तमस्ति, रभ् धातुतः तृच् योजनेन रब्धा इति प्रथमान्तं पदं पुंलिङ्गे सिद्ध्यति. प्रातिपदिकमस्ति रब्धृ, रब्धृ इति प्रातिपदिकमस्ति, आरब्धृ इति प्रातिपदिकम् आ उपसर्गपूर्वकः अस्ति चेत्. तत्र किं किं भवति इति प्रश्ने सति ऊहां कुर्वन्तु अथवा लिखन्तु. रभ् इति धातुः अस्ति, परं तृच् प्रत्ययः अस्ति, तृच् प्रत्ययात् तृ अवशिष्यते, रभ् योगः तृ इति स्थितिः. तत्र तृ इत्यत्र तकारः अस्ति, तत्र स्थितस्य तकारस्य स्थाने किं भवति? धकारादेशः भवति, झषस्थथोर्धोधः इति सूत्रेण. तृ इत्यत्र यः तकारः अस्ति तस्य तकारस्य स्थाने धकारः इत्युक्ते ताथा दाध चतुर्थः वर्णः, चतुर्थवर्णः तत्र धकारादेशः भवति. आदौ एतत् कार्यं भवति, तकारस्य स्थाने धकारादेशः. पश्चात् रभ् इत्यत्र भकारः अस्ति खलु, महाप्राणभकारस्य स्थाने अल्पप्राणबकारादेशः भवति झलां झष् झषि इति सूत्रेण. आहत्य सूत्रद्वयं ज्ञातव्यम्. प्रथमं सूत्रं झषस्तथोर्धोधः, तेन सूत्रेण तृच् इत्यत्र तकारस्य धकारः, तस्मात् परं रभ् इत्यत्र महाप्राणभकारः, तस्य महाप्राणभकारस्य स्थाने अल्पप्राणबकारादेशः भवति झलां झष् झषि इति सूत्रेण. तेन रब्धृ इति प्रातिपदिकं सिद्ध्यति वर्णमेलनेन. रब्धा इति पुंलिङ्गे भवति, रब्ध्री स्त्रीलिङ्गे, नपुंसकलिङ्गे रब्धृ इति. आ उपसर्गपूर्वकः अस्ति चेत् आरब्ध्री इति रूपाणि भवन्ति. पश्यन्तु आरब्धा इति पदं तृजन्तपदं, ऋकारान्तप्रातिपदिकं सिद्ध्यति. आरब्धृ इति ऋकारान्तप्रातिपदिकम् अस्ति, पुंलिङ्गे आरब्धा. महोदय भवान् वदतु, आरब्धा इति पदम् अन्यत्र कुत्र दृश्यते?
आरब्धा इति अन्यत्र
क्तान्तरूपं स्त्रीलिङ्गे अस्ति चेत् भवति खलु.
आरब्ध्री इति रूपं सिद्ध्यति वा?
न, तृजन्तरूपाणि पश्यामश्चेत् आरब्धा, आरब्ध्री, आरब्ध्रु एवं रीत्या त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति, किन्तु क्तान्तरूपं साधयितुम् इच्छामश्चेत् तत्र रूपाणि कानि?
इक्तान्तरूपं रभुपूर्वक रभुयोगे इक्त इक्त इति ककारस्य लोपः भवति, इति संज्ञा भूत्वा लोपः भवति, इक्त त एव अवशिष्यते, रभ रभुयोगे तकारः, तकारस्य धकारः भवति प्रायः, तकारस्य धकारः भवति इति रूपेण रब्धा रब्धु रब्धा नास्ति, रब्धा पूर्वमेव आगच्छति, तत्र धकार आदेशो भवति, रब् भकारस्य मूर्धन्य भकारस्य अल्पप्राणभकारः भवति वा अत्र अत्रापि
भवति? अत्र किं वक्तुमिच्छामि, अत्र क्तान्तरूपं क्तान्तरूपाणि पश्यामश्चेत् अपि रब्ध इति प्रातिपदिकं, तत्रापि रब्ध इति प्रातिपदिकं सिद्ध्यति. पुंलिङ्गे रब्धः, स्त्रीलिङ्गे रब्धा, नपुंसकलिङ्गे रब्धम् इति रूपाणि. आ उपसर्गपूर्वकः अस्ति चेत् आरब्धः, आरब्धा, आरब्धम् एवं क्तान्तरूपाणि भवन्ति. तत्रापि सन्धिकार्याणि ईदृशानि एव भवन्ति. इत्युक्ते तत्र रब् धातुतः क्तान्तरूपं साधयितुम् इच्छामश्चेदपि हल् सन्धिकार्याणि तत्रापि समानानि. झषस्तथोर्धोदः इति प्रथमं सूत्रं, तेन सूत्रेण तत्र स्थितस्य तकारस्य स्थाने धकारः, पश्चात् झलां झषि इति सूत्रेण महाप्राणभकारस्य स्थाने अल्पप्राणभकारः सिद्ध्यति, तेन रब्ध इति रूपं सिद्ध्यति. एवमेव लब् धातोः प्रसङ्गे अपि ईदृशानि कार्याणि एव. अत्र मम आशयः कः, आरब्धा इति तृजन्तरूपम् अस्ति, अपि च स्त्रीलिङ्गे क्तान्तरूपमपि तदेव, स्त्रीलिङ्गे क्तान्तरूपम् आरब्धा एव भवति. कथं ज्ञातव्यं तृजन्तरूपं वा नो चेत् क्तान्तरूपं वा इति कथं ज्ञायते? गोमती भगिनी वदतु.
किं भगिनि?
अत्र आरब्धा इति पदं तृजन्तरूपमस्ति चेत् पुंलिङ्गे भवति, तृजन्तरूपमस्ति चेत् पुंलिङ्गे भवति, क्तान्तरूपमस्ति चेत् स्त्रीलिङ्गे भवति. अवगतं खलु?
अवगतं. तृजन्तरूपं वा स्त्रीलिङ्गरूपं वा क्तान्तरूपं वा इति कथं जानीमः इति प्रश्नः न.
अहं किं वक्तुमिच्छामि इत्युक्ते तृजन्तरूपं रब्धा इति तृजन्तरूपं पुंलिङ्गे भवति, रब्धा इति क्तान्तरूपं स्त्रीलिङ्गे अपि अस्ति इति वक्तुमिच्छामि. इतोपि केचन धातवः सन्ति. सत्यभामा भगिनी, भवती चकौ इति धातोः वदतु महोदय. चकौ करोतु.
चकौ इति धातुः अस्ति, वादिगणीयधातुः अस्ति. तत्र अकारस्य अन्ते स्थितस्य अकारस्य उपरि अनुनासिकचिह्नम् अस्ति इति कारणेन तस्य लोपः भवति. चक् इत्येव अवशिष्यते. कित् अस्ति चक् इति, चक् धातुः कित् अस्ति
न,
कित् अस्ति,
कित् अस्ति इति न वदामः. कित् अस्ति इति वाक्यम् असाधु. धातोः प्रसङ्गे वदतु, अत्र धातुः किं पदी भवति?
तत्र तत्र किमपि चिह्नं नास्ति, तत्कारणेन धातुः चिह्नं नास्ति इति सूत्रेण अनुदात्तः अपि नास्ति इति. परन्तु कोऽपि चिह्नं नास्ति इति कारणेन स्वरितः अस्ति.
न, अत्र चिह्नं नास्ति. सत्यभामा भगिनी वदतु.
चकाम् इति धातुः अत्र अनुनासिक आकारस्य संज्ञा भवति, अतः चक् इति अवशिष्यते. चक् इति अवशिष्यते. अत्र किमपि चिह्नं नास्ति, अतः परस्मैपदि भवति वा?
उत्तमम्. स्वरितचिह्नं नास्ति, अनुदात्तचिह्नं नास्ति,
अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदसंज्ञा प्राप्नोति. इदानीं लटि रूपमस्ति, भुवादिगणीयविकरणप्रत्ययः अस्ति शप् अतः अकारस्य शकारस्य इत्संज्ञा लोपः भवति अकारः अवशिष्यते छक् योगः आयोगः ति अत्र छक् योगः आयोगः ति
वर्णमेलनेन
चकति इति रूपं सिद्ध्यति
चकति इति रूपं सिद्ध्यति अत्र अकारः अनुनासिकः अस्ति किन्तु तत्र किमपि चिह्नं नास्ति इति कारणतः उदात्तेत् धातुः उदात्तेत् धातुः अतः परस्मैपदी अपि च धातोः इड् व्यवस्था कीदृशी
इदानीं चक् इत्यत्र अनुदात्तः नास्ति अतः सेट् धातुः इति इड् अनुकूलता अस्ति धातोः इदानीं त्रिचिरूपं साधयामः चेत् छक् योगः त्रिच् अत्र इदनुकूलता अस्ति इति कृत्वा छकित्र इति रूपं भवति छकिता छकित्री छकितृ
उत्तमं तत्र छकित्र इति प्रातिपदिकं सिद्ध्यति प्रथमाविभक्त्यन्तरूपाणि वदतु पुंलिङ्गे
छकिता छकितारौ छकितारः
उत्तमं साधु अग्रे करोतु
अग्रे छी छी इति धातु छी इत्यत्र इत्संज्ञा न भवति वा इति छी अत्र अनुबन्धलोपः नास्ति चेत् चिन्तयामि छी एव अवशिष्यते तिष्ठति
लौकिकधातुः अपि क्षी एव अत्र अनुबन्धवर्णाः न सन्ति
छी इदानीं छी इति परस्मैपदी अस्ति
किमर्थम्
अत्र स्वरितः नास्ति अनुदात्तः नास्ति
इत्संज्ञकस्वरः एव नास्ति शेषात् कर्तरी परस्मैपदं सूत्रेण परस्मैपदी धातुः रूपं साधयतु लटि
छी योगः लटि रूपमस्ति शप्विकरण विकरणप्रत्ययः भुवादिगणे अस्ति इति कृत्वा छी योगः शप् योगः ति छी इकारः अस्ति शप् इति सार्वधातुकप्रत्ययः अस्ति अतः सार्वधातुक अर्थधातुकयोः गुणः इति सूत्रेण छी इत्यस्य गुणकार्यं सम्भवति छे इति भवति इदानीम् एकारः अस्ति आकारः पुरतः अस्ति इति कृत्वा एचोयवायावः इति सूत्रस्य प्रसक्तिः अस्ति अतः छ योगः ऐ आदेशः भवति छ योगः ऐ योगः ति छयति इति रूपं भवति लटि रूपम्
उत्तमं छी इति धातुः इगन्तधातुः अतः शपं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा क्षी क्षे भवति यचोयवायावः इत्यनेन अयादेशः तेन क्षयति इदानीं त्रिजन्तरूपं
त्रिजन्तरूपम् अत्र त्रिच् इदनुकूलता अस्ति छी इत्यत्रापि इदनुकूलता अस्ति
अत्र पश्यतु छी इत्यत्र अधोभागे रेखा अस्ति
अतः अनित् धातुः अस्ति क्षम्यता अतः छित्र इदनुकूल अनुकूलता नास्ति छी योगः त्रिच् छित्र इति रूपं वा
क्षेत्र
गुणः भवति क्षम्यता गुणः भवति इदन्त धातुः अस्ति अतः अत्र एतत् अर्थधातुक अस्ति त्रिच् प्रत्ययः सो सार्वधातुक अर्थधातुकयोः गुणः भवति इगन्तस्य गुणः अतः इकारस्य एकारः भवति छे योगः त्र क्षेत्र इति भवति
क्षेत्र इति प्रातिपदिकम् अस्ति रूपाणि वदतु
क्षेता क्षेत्री क्षेत्र
उत्तमं क्षेता इति पुंलिङ्गे भवति क्षेत्री स्त्रीलिङ्गे क्षेत्र नपुंसकलिङ्गे रूपाणि भवन्ति अत्र धातुः इगन्तधातुः अस्ति धातोः परम् आर्धधातुकप्रत्ययः अस्ति अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यम् अतः क्षीक्षे भवति अपि च धातुः अनिट् अनिट् अस्ति इति कारणतः तत्र इडागमः न दृश्यते क्षेता इति रूपम् उत्तमं भगिनी तदेव नरसिंहहेड्डे महोदय भवान् करोतु
राजर् इति दातु अन्तिम ऋकार स्वरित अस्ति, अतः स्वरितनितकर्तव्यप्रायक्रियाफले इत्यनेन उभयपदि भवति. राज् इति अवशिष्ट दातु लौकिकरूपम्. अत्र इडागम प्रथमतया अहं शप् योजनेन वदामि. राज् योग शप् योग ति. अत्र गुणस्य प्रसक्तिः नास्ति, न एकाङ्ग अस्ति, पुगन्तलघुपदपि नास्ति, अतः राजयोग अयोग राजते इति आत्मनेपदि, राजति इति परस्मैपदि. अत्र अवशिष्टसुर आकारः उदात्तः अस्ति, अतः सेट् भवति. राजयोग तृ तृ इति अपि सेट् अस्ति, अतः राजयोग तृ इकार इडागमायाति. राजितृ राजित्र इति अस्ति, राजिता राजितारौ राजितारः राजित्री राजितृ त्रयरूपम्.
उत्तमं. धातोः रूपं तत्र जकारोत्तरवर्ती ऋकारस्य उपरि स्वरितचिह्नम् अस्ति, अतः धातुः स्वरितेत् धातुः. स्वरितेत् धातुः अस्ति चेत् स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी भवति, अतः राजति राजते इति रूपद्वयं सिद्ध्यति. अपि च अत्र अवशिष्टस्वरस्य अधोभागे अथवा उपरि किमपि चिह्नं नास्ति. अनुबन्धवर्णानां लोपकार्यानन्तरम् अत्र अवशिष्टस्वरः आकारः अस्ति. रेफ उत्तरवर्ती आकारः कीदृशः, अत्र किमपि चिह्नं नास्ति इति कारणतः सेट् भवति धातुः. सेट् इत्युक्ते इडनुकूलः इति कृत्वा राजयोगः ई योगः तृ इति रूपं राजितृ.
एकः प्रश्नः, राज् राज् सेट् अस्ति, सेट् अस्ति चेत् लट्लकारे राजिति राजिते अस्ति अथवा राजते, इकार न भवति?
लट्लकाररूपेषु इडागमचिन्तनम् अनावश्यकम्. किमर्थं चेत् लट्लकारः सार्वधातुकलकारः, सार्वधातुकप्रक्रियायाम् इडागमचिन्तनम् अनावश्यकम्.
अस्तु अस्तु.
भगिनि, राजयोगतृ अस्ति न, तत्र स्तोःश्चलाश्चुः न कार्यं करोति वा?
राजयोगः ई योगः तृ.
राजयोगः तृ न,
इडनुकूलधातुः खलु. राजयोगः ई योगः तृ, तत्र केवलं वर्णमेलनमेव, राजितृ.
परन्तु यदा इडागमः भवति तत्तु प्रत्ययस्य अवयवः एव अस्ति न, अतः जकार तकार स्तोःश्चल न भवति.
भवती उक्तवती खलु प्रत्ययस्य इडागमः भवति. इत्र इति रूपं योजयामः. इत्र इत्यस्मात् पूर्वं राज् इति रूपम् अस्ति. राज् इति लौकिकधातोः रूपं. राजयोगः इत्र केवलं वर्णमेलनं, राजित्र. नरेश महोदय, भवान् वक्तुमिच्छति वा?
अग्रे घस्लृणौ घस्लृणौ तत्र अन्तिम ऋकार अनुनासिका अस्ति, तस्य इत्संज्ञा भवति, घस्ल अवशिष्यते, घस्ल. अन्तिम ऋकारः तु अनुदात्ता नास्ति, स्वरितः नास्ति, अतः उदात्तेत् अस्ति. उदात्तेत् अस्ति चेत् तत्र परस्मैपदी अस्ति. घस्ल घस्ल अस्ति. घस्ल योग शप् योग ति. घस्ल न लकारस्य इति संज्ञा भवति. घस् अस्ति, घस् योग शप्. अत्र इगन्त नास्ति, अतः तत्र गुणकार्यं प्रसक्तिः नास्ति. घस् योग शप् योग ति. षकारस्य पकारस्य संज्ञा भवति. घस् योग अयोग ति, घसति. घसति लट्लकाररूप अस्ति.
किमर्थं चेत् यः लुकारः अत्र दृश्यते सः लुकारः केवलम् अनुनासिकः, तत्र स्वरितचिह्नं नास्ति, अनुदात्तचिह्नं नास्ति इति कारणतः धातुः उदात्तेत् धातुः. अतः शेषात् कर्तरि परस्मैपदं सूत्रेण धातुः परस्मैपदी धातुः, अतः घसति. इदानीं तृजन्तरूपम्.
तृजन्तरूपम् अत्र घस् योग त्रिच् चकारस्य संज्ञा भवति घस्. अत्र तु धातुः अनुदात्तात् नास्ति, अतः अनेट् अस्ति. अनेट् अस्ति चेत् घस्त्रि घस्त्रि प्रातिपदिकम् अस्ति, पुल्लिङ्ग घस्ता, स्त्रीलिङ्ग घस्त्री, नपुंसकलिङ्ग घस्त्र.
उत्तमम्. अत्र धातुः अनिट् धातुः. अनिट् धातुः इति कथं ज्ञायते? तत्र घकारोत्तरवर्ती अकारस्य अधोभागे रेखा अस्ति, अतः एका च उपदेश अनुदात्तात् सूत्रेण अनिट् धातुः भवति इति कृत्वा इडनुकूलः धातुः नास्ति. अतः घस्ता इति रूपम् अस्ति, इडनुकूलः नास्ति धातुः. नरसिंह हेग्डे महोदय, शुठ्यौ प्रसङ्गे वदतु.
शुठ्यौ इति इकार अनुनासिक इकार संज्ञा भवति. अत्र अनुदात्त अपि नास्ति, स्वरित अपि नास्ति, अतः परस्मैपदी भवति. शुट् इति अत्र इकार अनुनासिक अस्ति, अतः इदितोनं दातु इति नकारस्य आगमः भवति, शुण्ट् इति भभवति. अनन्तरं नश्चयपदान्तस्थले अनुस्वारस्य परसवर्ण इत्यनेन शु, अनन्तरं मूर्धन्य णकार, अनन्तरं टकार, शुण्ट् इति भवति परस्मैपदि. शुण्ट् योग शप् योगति, शुण्टति शुण्टति इति गुणकार्यं न भवति. किमर्थम् इत्युक्ते उपादायं नकार अस्ति, अन्ते टकार अस्ति, हल् वर्ण अस्ति. अत्र धातु अस्ति सेट्. किमर्थम् इत्युक्ते उकारः यत् अवशिष्टः अस्ति तत् उदात्तः अस्ति, अतः सेट् भवति. शुण्ट् योग तृ, शुण्ट् योग इडागमः भवति. शुण्टितृ, शुण्टिता, शुण्टित्रि, शुण्टितृ.
उत्तमम्. अन्तिमधातुः अस्ति कै. कै धातोः प्रसङ्गे सुन्दर महोदय भवान् वक्तुमिच्छति वा? कै धातोः प्रसङ्गे
कै धातुः भातिगण्यधातुः कै धातुः. तत्र कोऽपि अनुबन्धवर्णः नास्ति कै धातुः. तत्र चिह्नमस्ति अधोभागे, अधोभागे चिह्नम् अस्ति इति कारणेन अनुदात्तः, अनुदात्तः अस्ति, अनुदात्त.
कै धातोः प्रसङ्गे धातुः किं पदी भवति?
अधोभागे चिह्नमस्ति, चिह्नमस्ति इति कारणतः शेषात् कर्तरि परस्मैपदम् इति वा, शेषात् कर्तरि परस्मैपदम् इति रूपं सिद्ध्यति वा, परस्मैपदी वा?
नरेश् महोदय, अयं धातुः परस्मैपदी एव, किमर्थं परस्मैपदी?
अत्र अनुबन्धः नास्ति चेत् एतत् परस्मैपदी अस्ति.
सत्यभाम भगिनी वदतु.
संज्ञावर्णः अनुदात्तः नास्ति, स्वरितः अपि नास्ति, अतः एतत् परस्मैपदमेव.
अत्र इत्संज्ञकवर्णाः एव न सन्ति खलु? धातुः उदात्तः अस्ति, इत्संज्ञकवर्णः एव नास्ति, अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण धातुः परस्मैपदी भवति. इदानीं रूपं साधयतु महोदय, सुन्दर महोदय.
रूपम् अत्र कै धातुः एजन्तधातुः इति कारणेन तस्य गुणस्य प्रसक्तिः एव नास्ति, केवलं सन्धिकार्यं भवति. एचो अयवायवः इति सन्धिसूत्रेण कै
तत्र ककारः योगः ऐकारः स्थितिः अस्ति, तत्र ऐकारस्य स्थाने आय् आदेशः भवति. अत्र केवलं सन्धिकार्यमेव अस्ति, यचोयवायावः इति सूत्रेण
शप् योगेति शकारस्य पकारस्य च अनुबन्धलोपानन्तरम् अ एव अवशिष्यते काय् योगे अ योगेति कायति इति लटि रूपं सिद्ध्यति कायति इति रूपम् अनिट् अनिट् धातुः तत्र कै तृच् तृच् प्रति
सत्यभाम भगिनी भवती वदतु समापयामः
कै इति अनिट् धातुः अस्ति तृच् इति प्रत्ययः इडनुकूलः अस्ति कै योगः तृच् इत्यत्र एकछन्दधातोः अनन्तरम् अशिति प्रत्ययः अस्ति चेत् तस्य आत्वं विधीयते अतः का इति भवति का योगः तृच् कातृ इति रूपं काता कात्री कातृ
उत्तमं भगिनि पश्यन्तु धातुः ऐकारान्तधातुः एजन्तधातुः इत्युक्ते एच् प्रत्याहारस्थवर्णः ऐकारः धातुः एजन्तधातुः अतः अत्रापि आदेच उपदेशे अशिति इति एकं सूत्रमस्ति तेन सूत्रेण एजन्तधातूनाम् आत्वं भवति आर्धधातुकप्रक्रियायाम् अशित् प्रत्यये परे एजन्तधातवः आकारान्ताः भवन्ति इति कारणतः कै इत्यस्य रूपं का भवति ऐकारस्य स्थाने आकारः तत्र का योगः तृ कातृ इति प्रातिपदिकं काता कात्री कातृ इति त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति सम्यक् वयं सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः अयम् अध्यायः समापितः आगामिनि सप्ताहे नूतनविषयं प्रति गमिष्यामः सर्वेषां धन्यवादाः
धन्यवादः भगिनी पुनर्मिलामः
पुनर्मिलामः